इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। भारतीयान्तरिक्षयात्री शुभांशुशुक्ला एक्सियम 4 इति अभियानस्य चालकदलस्य अन्ये त्रयः सदस्याः अन्ताराष्ट्रिय अन्तरिक्षस्थात्रात् स्वकीयस्य 18 दिवसानाम् ऐतिहासिकाभियानस्यानन्तरं सुरक्षितरूपेण पृथ्वीं प्रत्यागतवन्तः। विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् यत् शांघाई सहयोग संगठनेन आतंकवादस्य पृथकतावादस्य उग्रवादस्य च विषयेषु सन्धिरहिता स्थितिः स्वीकरणीया। राष्ट्रपति द्रौपदी मुर्मुवर्या अवदत् यत् 47-2000 विकसित राष्ट्रस्य लक्ष्यं प्राप्तुं राष्ट्रनिर्माणे शिक्षायाः महती भूमिका भविष्यति। अपि च भारतस्य आर वैशाली, हरिका द्रोणावल्ली, कोनरु हम्पी, दिव्यादेशमुखश्च श्वः बटुनी इत्यत्र चतुरंग क्रीडायाः FIDE महिला विश्वचषकस्य चतुर्थे क्रीडाद्वन्द्वे क्रीडिष्यन्ति। भारतीयान्तरिक्षयात्री शुभांशुशुक्ला एक्सियम 4 इति अभियानस्य चालकदलस्य अन्ये त्रयः सदस्याः अन्ताराष्ट्रिय अन्तरिक्षस्थात्रात् स्वकीयस्य 18 दिवसानाम् ऐतिहासिकाभियानस्यानन्तरं सुरक्षितरूपेण पृथ्वीं प्रत्यागतवन्तः सन्ति। स्पेस एक्स ड्रैगन इत्यन्तरिक्षयानं यत् ग्रेस इति नाम्ना विख्यातं तदद्य अपराह्णे कैलिफोर्नियायां सैन डिएगो इत्यस्य तटे प्रशान्त महासागरे अवरोहितम्। चालकदलम् अधुना पृथिव्या गुरुत्वाकर्षणं समायोजितं कर्तुं 7 दिवसानां पुनर्वास कार्यक्रमे भागं ग्रहीष्यति। दलनायकः शुक्लावर्यः अन्ताराष्ट्रिय अन्तरिक्षस्थात्रस्य यात्रां कुर्वाणः प्रथमभारतीयः अपि च दलनायकस्य राकेशशर्मणः अनन्तरं द्वितीयः भारतीयान्तरिक्षयात्री वर्तते, यः 84-19-शततमाब्दे अन्तरिक्षम् अगच्छत्। अन्ताराष्ट्रिय अन्तरिक्षस्थात्रे स्वकीयस्य प्रवासावधौ श्रीशुक्लावर्यः भारतसम्बन्धान् 7 विशिष्टान् सूक्ष्म गुरुत्वाकर्षण प्रयोगान् अकरोत्। एते प्रयोगाः भविष्यत्कालीनस्य ग्रहाणाम् अभियानाय, दीर्घावधि सम्बद्धाय अन्तरिक्षनिवासाय महत्वपूर्ण सूचनाः समुपलब्धं कारयितुं कृताः सन्ति। रविवासरे नासायाः अभियानदलेन एक्सियम 4 इत्यस्य चालकदलाय एकस्य पारम्परिक समारोहस्य आयोजनं कृतमस्ति। समारोहे कथयन् श्रीशुक्लावर्यः स्वकीयान्तरिक्षयात्रां वास्तविकरूपेण अविश्वसनीयम् अकथयत्। आकाशगंगा नामकम् अभियानमिदम् एक्सियम स्पेस अमेरिकायाः अंतरिक्ष संस्थान नासा, भारतीयान्तरिक्षानुसंधान संघटनम् इति एतेषां मध्ये एकः सहयोगी प्रयासः वर्तते। प्रधानमन्त्री नरेन्द्र मोदी अंतरिक्षे ऐतिहासिकाभियानात् पृथ्वीं प्रत्यागतस्य दलनायकस्य शुक्लावर्यस्य स्वागत सत्कारं कर्तुं राष्ट्रेण सह सम्मिलितः अभवत्। प्रधानमन्त्रिणा सार्वजनिक सन्देश पटले भारतीय अन्तरिक्ष यात्रिणः सुरक्षित प्रत्यावर्तनस्य प्रशंसा कृतास्ति। श्रीमोदीवर्यः प्रोक्तवान् यत् अन्ताराष्ट्रिय अन्तरिक्षस्थात्रस्य यात्रां कुर्वता प्रथम भारतीयान्तरिक्ष यात्रिणः रूपेण दलनायकेन शुक्लवर्येण स्वकीय समर्पणेन, साहसेन, अग्रणी भावनया च एकार्बुद स्वप्नान् प्रेरितम् अकरोत्। सः प्रोक्तवान् यत् एषा यात्रा देशस्य मानवान्तरिक्षयात्राभियानस्य गगनयान इत्यस्य उपलब्धिं प्रति गन्तुं सफल प्रयासः अस्ति। केन्द्रीय विज्ञान प्रौद्योगिकी मन्त्री डॉ जितेन्द्र सिंहः अस्मिन् अवसरे भारतीय वायुसेना समूहस्य दलनायकाय शुभांशुवर्याय एक्सियम 4 इति अभियानस्य दलाय च वर्धापनम् अयच्छत्। वार्ताहरै सह संवादं कुर्वन् डॉ सिंहः प्रोक्तवान् यत् भारतेन अद्य अन्तरिक्षे वास्तविकरूपेण एकं स्थायिस्थानम् अधिगतम् अस्ति। सः प्रोक्तवान् यत् भारताय एतत् गौरवास्पदं क्षणमस्ति, यतो हि तस्य प्रतिभासम्पन्नानां पुत्राणाम् एकः सफलयात्रातः प्रत्यागच्छत्। मन्त्रिवर्यः प्रोक्तवान् यत् सर्वे अन्तरिक्षयात्रिणः सप्ताहेकं यावत् पुनर्वास कार्यक्रमे स्थास्यन्ति। सः प्रोक्तवान् यत् एक्सियम 4, नासा, स्पेस एक्स इति एतेषां प्रतिनिधिभिः सह पृथग्रूपेण चर्चां विधास्यति। श्री सिंह अकथयत् यत् शुभांशुशुक्ला अगस्त मासस्य 17 दिनांकं यावत् भारतम् आगमिष्यन्ति इति अनुमानमस्ति। राष्ट्रपति द्रौपदी मुर्मुवर्या शुभांशुवर्याय अन्येभ्य चालकदलस्य सदस्येभ्य च कुशल प्रत्यागमनाय वृद्धापनम् अयच्छत्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। विदेश मंत्री डॉक्टर एस जयशंकर अद्य बीजिंग नगरे शंघाई सहयोग संघटनस्य सदस्यैः सह चीन देशस्य राष्ट्रपति शी जिनपिंग इत्यनेन सहापि मिलितवान्। एकस्मिन् सामाजिक पटल संदेशे डॉक्टर जयशंकर अवदत् यत् सः चीनस्य राष्ट्रपतिं भारत चीन देशयोः द्विपक्षीय संबंधेषु अद्यतन स्थितीनां विषये अकथयत्। विदेश मंत्री डॉक्टर एस जयशंकर उक्तवान् यत् शांघाई सहयोग संघटनेन आतंकवादस्य पृथक्तावादस्य उग्रवादस्य च विषयेषु संधिरहिता स्थिति स्वीकरणीया। डॉक्टर जयशंकर अद्य सायंकाले चीन देशस्य टियानजिन नगरे शंघाई सहयोग संघटनम् इत्यस्य विदेश मंत्रिणां उपवेशने भागम् अभजत्। पहलगाम नगरे आतंक्याक्रमणस्य उल्लेखं कुर्वन् मंत्रिवर्यः अवदत् यत् धार्मिक विभाजनं विधातुं जम्मू कश्मीर राज्यस्य पर्यटन अर्थव्यवस्थां दुर्बलं च कर्तुं एतत् कुकृत्यं विहितमस्ति। सः अवदत् यत् संयुक्त राष्ट्र संघस्य सुरक्षा परिषद घटनायाः निन्दाम् अकरोत्। सहैव एतादृशस्य आतंकवादस्य अपराधीनां आयोजकानां वित्तदातृणां प्रायोजकानां च उत्तरदायित्वं रेखांकितम् अकरोत्। अन्तर्राष्ट्रिय व्यवस्थायां वर्तमान अव्यवस्थायां प्रकाशयन् डॉक्टर जयशंकर अवदत् यत् आर्थिक अस्थिरता वर्धमाना अस्ति। सः अवदत् यत् भारतं शांघाई सहयोग संघटनं मध्ये स्टार्टअप्स नवोन्मेष पारम्परिक औषध सार्वजनिक आधारित संरचना पर्यन्तान् अनेकान् उपक्रमान् अकरोत्। सः अकथयत् यत् शांघाई सहयोग संघटनस्य सदस्य देशानां मध्ये सहयोगं प्रगाढं कर्तुम् अधिक व्यापारस्य निवेशस्य विनिमयस्य च आवश्यकता वर्तते। राष्ट्रपतिः द्रौपदी मुर्मुवर्या अद्य प्रोक्तवती यत् भारतस्य राष्ट्रियं लक्ष्यं वैश्विक महाशक्तिः भवितुं वर्तते। सा अवदत् यत् भारतेन आधारभूत संरचना स्वास्थ्यसेवा अंतरिक्ष विज्ञान प्रौद्योगिकी कृत्रिम बुद्धि चेत्यादिषु अनेकेषु क्षेत्रेषु सुदीर्घयात्रा कृता अस्ति। सा अवदत् यत् 47+2000 वर्षपर्यन्तं विकसित राष्ट्रस्य लक्ष्यं प्राप्तुं राष्ट्रनिर्माणे भारतस्य भविष्यस्य स्वरूपनिर्माणे च शिक्षायाः महती भूमिका अवश्यमेव भविष्यति। अद्य अपराह्णे कटकनगरे रेवेन्शॉ विश्वविद्यालयस्य 13वें वार्षिक दीक्षांत समारोहे प्रवदन्ति राष्ट्रपति मुर्मुवर्या प्रसन्नतां प्रकटितवती यत् अधिकांश विभागेषु बालिकाः शीर्षस्थानं प्राप्तवत्यः।
I am told that this year girl students have topped in 21 out of 27 departments. Over the last 5 years, girl students have consistently outperformed boys in academics. At the postgraduate level, the number of girl students who topped was more than 3.5 times that of the boys. This reflects India's shift from women empowerment to women-led development. The university has also seen a steady increase in enrollment from students in tribal areas, underprivileged groups and Divyangjan.
इतः पूर्वं श्वः आरभ्य स्वस्य गृहराज्यस्य ओडिशायाः द्विदिवसीयायां यात्रायां राष्ट्रपतिवर्या कटकनगरस्य रेवेन्शॉ बालिका उच्च विद्यालयस्य त्रयाणां भवनानां पुनर्विकासस्यापि आधारशिलाम् अस्थापयत्। सा अद्य अपराह्णे कटकनगरे 15वीं शताब्दौ प्रादुर्भूतस्य महान् ओडिया कवेः विदुषः च आदिकवि सरलादास इत्यस्य जन्मजयन्ती समारोहे भागम् अभजत् तथा च 24+2000 कलिंग रत्न पुरस्कारं केन्द्रीय मन्त्रिणे धर्मेन्द्र प्रधानाय प्रायच्छत्। भारत ऋतु विज्ञान विभागेन अद्य राजस्थानस्य जम्मू कश्मीरस्य च एकांत स्थानेषु अतीव प्रचण्ड वृष्टिः भविष्यति इति पूर्वानुमानं व्यक्तीकृतमस्ति। विभागस्यानुसारं बिहार झारखण्ड ओडिशा राज्येषु अपि आगामि दिनद्वये प्रचण्ड वृष्टिः भविष्यति। आकाशवाण्या सह विशिष्ट संवादे ऋतु विभागस्य वरिष्ठ वैज्ञानिक डॉ आर के जेनामणि अवदत् यत् एतेषां राज्याणां कृते ऑरेंज अलर्ट इति नारंगवर्णीय संचेतना प्रसारिता अस्ति। भारतस्य आर वैशाली हरिकाद्रोणावल्ली कोनरु हम्पी दिव्या देशमुखश्च श्वः बटुनी इत्यत्र चतुरंग क्रीडायाः एफआईडीई महिला विश्व चषकस्य चतुर्थे क्रीडाद्वन्द्वे क्रीडिष्यन्ति।